नमस्कारः. न्यायवर्गे नूतनन्यायवर्गे पुनः सर्वेषां स्वागतम्. अस्माकं न्यायाध्ययनम् अनुवर्तते अद्य. तर्हि गतवर्गे किं किं कृतवन्तः इत्यस्य विषये किञ्चित् पुनरावलोकनं कृत्वा अग्रे सरेम इति चिन्तयामि. गतवर्गस्य विषयः मुख्यविषयः आसीत् आधाराधेयभावव्यवस्थापनम् इति. तृतीयपृष्ठे अस्ति, सर्वे पश्यन्तु तत्र आधाराधेयभावव्यवस्थापनम् इति. तत्र किञ्चित् वसुप्रधा भगिनी, भवती तत्र एकं चित्रमस्ति खलु तृतीयपृष्ठे आधाराधेयभावव्यवस्थापनम् इति, तत्र चित्रं दृष्ट्वा आधारः कः आधेयः कः इति वक्तुं शक्नोति वा?
आधारः आसनं आदेय यज्ञदत्तः.
हा, बहु समीचीनं भगिनि. आदेयः यज्ञदत्तः, आधारः अधिकरणम् आश्रयः. समीचीनम्. आश्रयं सर्वं समानार्थः शब्दाः. अस्तु, सम्यक्. अपि च द्रव्यं गुणः अनयोः मध्ये आधारः कः आधेयः कः, वसुप्रदा भगिनी?
द्रव्योः गुणं मध्ये द्रव्यम् गुणः
गुणः कुत्र वर्तते, गुणः कुत्र तिष्ठति?
गुणः द्रव्यं तिष्ठति,
द्रव्ये तिष्ठति. सप्तमी प्रयोगः भवेत्, द्रव्ये तिष्ठति गुणः. अस्तु, तर्हि द्रव्यम् इति आधारः अथवा अधिकरणं, गुणः आधेयः इति अस्माकं मूलविषयः आसीत्. यज्ञदत्तः आसनम् इति सर्वम् उदाहरणत्वेन, तावदेव. न्यायशास्त्रे कस्मिन् किं वर्तते इति द्रष्टव्यमस्ति चेत् तस्य उपयोगः भवति आधाराधेयभावव्यवस्थापनम् इत्यस्य. अस्तु, तर्हि न्यायशास्त्रे सप्तपदार्थाः सन्ति खलु, तर्हि सप्तपदार्थाः के इति प्रायः कः वदति? सव्यसाची महोदय स्मारयति वा किञ्चित्?
आम् आं भगिनि, सप्तपदार्थाः सन्ति द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः एवम् अभावः.
हा, बहु सम्यक् अस्ति महोदय. अपि च द्रव्यम् इमे सर्वे पदार्थाः ये सन्ति, यद् महोदयेन उक्तं, द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः, इमे सर्वे पदार्थाः द्रव्यम् आश्रित्य तिष्ठन्ति. इत्युक्ते द्रव्यं सर्वेषाम् अधिकरणं तु अस्ति एव. द्रव्ये गुणः भवितुम् अर्हति, कर्म भवितुम् अर्हति, सामान्यं भवितुं सामान्यं भवति एव, विशेषः इति अपि भवति, समवायः, अभावः अपि त्यागामि इति कृत्वा द्रव्यस्य निरूपणं प्रथमं क्रियते न्यायशास्त्रे इति. अग्रे गत्वा वयं तदपि पश्येम. अस्तु, तदनन्तरम् आधाराधेयभावव्यवस्थापनस्थले चतुर्थपृष्ठं पश्यन्तु कृपया सर्वे. चतुर्थपृष्ठे, अस्तु, केनचित् आगतं वा नूतनतया, जनद्वयेन आगतम् इति भाति, नामानि कृपया. हरि ओम्, नामानि उच्यन्ताम्.
विजयः दूरवाण्या मध्ये अस्मि.
का?
अहं विजया हेजराजन्, दूरवाण्या मध्ये अस्मि.
ओ, समीचीनं भगिनि, अधुना बहु सम्यक्तया श्रूयते. अस्तु, सम्यक् भवत्याः ध्वनिः श्रूयते, समीचीनम्. अनन्तरं कोऽपि अस्ति वा?
आं भगिनि, अहं सङ्गीता श्रीकान्तन् अस्मि.
अस्तु, सम्यक् भगिनि. अनन्तरं सम्यक्. अस्तु, तर्हि चतुर्थपृष्ठं पश्यन्तु. केषाञ्चित् नामानि मम पार्श्वे न सन्ति चेत् कृपया वदन्तु नूतनतया ये केऽपि आगतवन्तः. सङ्गीता भगिन्याः अनन्तरं कोऽपि? अस्तु, सम्यक्. तर्हि चतुर्थपृष्ठं पश्यन्तु. तत्र आधाराधेयव्यवस्थापनस्थले अस्माभिः पदद्वयं दृष्टमासीत्, निष्ठ अपि च वर्ति इति. निष्ठ अपि च वर्ति चतुर्थे पुटे तत्र विद्या भगिनी निष्ठा अपि च वर्ति अनयोः अर्थः कः इति किञ्चित् वदति वा अपि च तस्य प्रयोगः कथं क्रियते इति
हा अत्र निष्ठा इत्युक्ते विद्यमानः अथवा वर्तते इति अर्थः अपि च वर्ति समानार्थकशब्दः वर्ति अपि अस्ति अथवा विद्यते इति तत्र यदि वयम् अत्र आसनम् अपि च यज्ञदत्तः इति पश्यामः चेत् आसने अधिकरणता अस्ति तर्हि आसननिष्ठा अधिकरणता अथवा आसनवर्तिनी अधिकरणता इति वाक्यद्वयं तत्र सम्भवति यज्ञदत्तः इति पश्यामः चेत् यज्ञदत्ते आधेयता अस्ति तर्हि यज्ञदत्तनिष्ठा आधेयता अथवा यज्ञदत्तवर्ति आधेयता इति वाक्यद्वयं तत्रापि सम्भवति
बहु समीचीनमस्ति भगिनि तर्हि न्यायशास्त्रे आधाराधेयव्यवस्थापनस्य विवरणार्थं निष्ठ अपि च वर्ति इति पदद्वयस्य उपयोगः भवति एव यथा भगिनी उक्तवती निष्ठ इत्युक्ते वर्तते विद्यते इति अर्थः आसननिष्ठाधिकरणता इत्युक्ते आसने अधिकरणता अस्ति इति एव अथवा आसनवर्तिनि अधिकरणता अपि च यज्ञदत्तनिष्ठ आधेयता अपि तथैव अस्ति इति तदनन्तरम् अग्रे गत्वा अस्माभिः ससम्बन्धिकपदार्थाः इत्यस्य विषये चतुर्थे पुटे एव ससम्बन्धिकपदार्थाः इत्यस्य विषये किञ्चित् अधीतं तर्हि जगन्नाथमहोदय तस्य विषये किञ्चित् वक्तुम् इच्छति वा
सम्बन्धिकपदार्थः इत्युक्ते यस्य
उदाहरणं दत्वा चतुर्थपुटे अस्ति पश्यतु तत्र
आं तर्हि रामे पुत्रत्वं यद् अस्ति तत्र रामस्य पुत्रस्य तु रामः पुत्रः इति द्वयोः मध्ये सम्बन्धो अस्ति ते ससम्बन्धिकः इति
ससम्बन्धिकः समीचीनं महोदय रामः पुत्रः इति वदामश्चेत् रामे पुत्रत्वमस्ति तर्हि रामः कस्य पुत्रः इति प्रश्नः आगच्छति एव खलु
ओ अस्ति रामः दशरथ मिलित्वा ससम्बन्धिकः इति
सत्यं रामः दशरथौ रामः रामस्य पिता ससम्बन्धिकौ यतोहि एकं श्रुत्वा अपरस्य अपेक्षा भवति अस्माकं मनसि साकाङ्क्षाः अथवा ससम्बन्धिकाः इति एकं पदं श्रुत्वा यदि अपरस्य पदस्य अथवा अपरस्य पदार्थस्य आकाङ्क्षा जिज्ञासा उदेति चेत् तत्र तौ ससम्बन्धिकौ पदार्थौ अथवा साकाङ्क्षौ इति वदामः तद्वदेव महोदय अत्र अस्माकम् आधाराधेयभावनिरूपणस्थले ससम्बन्धिकौ पदार्थौ कौ इति
तत्र ससम्बन्धिक यज्ञदत्तः अत्र तु आसनं अधिकरणता एतद्वयौ ससम्बन्धिकौ
हा अस्तु किञ्चित् परिष्कारः आवश्यकः श्रीवल्ली भगिनी प्रयत्नं करोति वा
not really raksha bhagini I'm a little behind on the lesson so
astu astu chinta
nastu atra adhikaranata asana mityukte adhikaranata apekshita asti asanam ityukte tatra kim avashyakam tatra
आसनम् इति त्यजतु इदानीम् आसनं त्यजतु अधिकरणता इति पदमस्ति खलु
तर्हि कस्य अधिकरणता अस्ति वा चेत् कस्य भारं आधारं कस्य आधारं भवति इति तत्र तस्य तत्र अपेक्षितम् अस्ति.
हा, कस्य आधारः अधिकरणं कस्य अधिकरणं भवति, तर्हि कस्य इति किं सूचयति? आधेयं सूचयति किल, अधिकरणता इति श्रुत्वा मनसि किम् आगच्छेत्? आधेयता का इति,
आधेयता अधिकरणता मिलित्वा ससम्बन्धिके.
सत्यं, बहु समीचीनं. हा, सम्यक्. इति ससम्बन्धिकौ पदार्थौ, ये केऽपि ससम्बन्धिकपदार्थाः सन्ति तयोः मध्ये निरूपकनिरूप्यभावः अपि वर्तते इति. अस्तु, समीचीनम्. अस्तु, नूतनतया केन केन आगतं, नामानि कृपया, नामानि उच्यन्त.
रवि अस्मि, वक्तुं न शब्दम्.
अस्तु महोदय, महोदय रवि महोदय भवतः 410 इति सङ्ख्या खलु?
आम्.
अस्तु, सम्यक्. अनन्तरं कोऽपि अस्ति वा नूतनतया? 93832 कस्य सङ्ख्या? अस्तु
भगिनी, मम सङ्गीत अस्ति काङ्कन् 93832688866 मम सङ्ख्या एव.
बहु समीचीनं भगिनि. अनन्तरं कोऽपि अस्ति भारतात्? 90031 कोऽपि?
अहं वदामि, विजया हेतिराजन्.
अस्तु, सम्यक् भगिनि. अस्तु, तर्हि ससम्बन्धिकौ पदार्थौ कौ इति वयं ज्ञातवन्तः. अधुना शिवरां महोदय किञ्चित् अग्रिमे पुटे, नमस्कारः महोदय, अग्रिमे पुटे पञ्चमपुटे पश्यतु, तत्र एकं चित्रमस्ति खलु, इत्युक्ते द्वितीयचित्रं, तत्र निरूपकः इत्यादिकम् अस्ति, तत्र किञ्चित् वदतु ससम्बन्धिकौ पदार्थौ कौ, तयोः मध्ये कीदृशभावः अस्ति इति.
अधेयता तथा अधिकरणता मध्ये ससम्बन्धभावः अस्ति, तत्र निरूपकता अधेयतता अधिकरणता द्वयोः मध्ये अस्ति. वास्तविकता अधेयता तथा अधिकरणता मध्ये परस्पर निरूपकनिरूप्यभावः अस्ति. अधेयता निरूपकं भवितुम् अर्हति, अधिकरणता अपि निरूपक भवितुम् अर्हति.
हा, बहु समीचीनम् अस्ति महोदय. नाम यत्र वदतु, वदतु कृपया.
परस्पर तत्र अधेयता अधिकरणता मध्ये निरूपक भावः तत्र अस्ति.
हा, बहु समीचीनम्.
यथा उदाहरणं तत्र दत्तमस्ति, व्यासः व्यासस्य तत्र कथायाम् उदाहरणं तथा अस्ति, अग्रिमे अस्ति, व्यासः कृष्णकथा निरूपयति, उदाहरणे व्यासः निरूपकः, निरूप्यभावः कृष्णकथायाम् अस्ति, तत्र परस्परनिरूप्यनिरूपकभावः नास्ति, किन्तु आधेयता अधिकरणता मध्ये परस्पर भावः तत्र अस्ति.
हा हा, अस्तु, बहु सम्यक् अस्ति महोदय. इति एव वार्ता अस्ति, यत्र ससम्बन्धिकपदार्थौ सह तयोः मध्ये कीदृशभावः वर्तते पुनः महोदय?
परस्पर निरूप निरूपकता निरूप्यभावः तत्र वर्तते, निरूप्य निरूपकता भावः तत्र वर्तते,
निरूप्य निरूपकभावः तत्र
वर्तते.
प्रथमतया अस्माभिः किम् अधीतम्? आधाराधेयभावः इति. आधाराधेयभावः कस्मिन् अन्तर्भूतः इति चेत् निरूप्य निरूपकभावः तस्मिन्नेव अन्तर्भूतः. यत्र आधाराधेयभावः अस्ति तत्र अवश्यं निरूपकनिरूप्यभावः वर्तते इति आगच्छति किल? अस्तु, इति मनसि भवेत्. यतोहि आधाराधेयभावस्थले आधेयता अपि च अधिकरणता ससम्बन्धिकौ, आधेयता अधिकरणतां निरूपयति, आधेयता निरूपकः अथवा निरूपिका भवति, अधिकरणता आधेयतां निरूपयति इति कृत्वा अधिकरणता अपि निरूपकः अथवा निरूपिका भवति इति आगतमस्ति. समीचीनं, तर्हि तदनन्तरं विजय भगिनी उपरितन भागे पञ्चमे कृते अस्तु भवत्याः किमपि स्टाटिक् ध्वनिः अस्ति किञ्चित् न श्रूयते
इदानीं श्रूयते भगिनि
इदानीं श्रूयते किं कृतवती इति न जाने समीचीनतया श्रूयते तथैव भवतु अस्तु पञ्चमे पुटे भगिनि उपरितनभागे एकं चित्रम् अस्ति
निरूपकनिरूपित
पञ्चमपुटस्य प्रथमचित्रं तत् चित्रं किञ्चित् वदतु तत्र निष्ठा इत्यादिकम् उपयुज्य
किं चित्रं द्रव्यं गुणः द्रव्यं कर्म
पञ्चमपुटे पेज् फैव्
पेज् फैव् अधि द्रव्यं निष्ठा अधिकरणता
भगिनी न भगिनी पञ्चमपुटे न न भवती षष्ठपुटे पश्यति अत्र आधेयः
उपरि निरूप्य निरूपकभावव्यवस्थापनं तदेव
हा तस्मात् उपरि भगिनि यज्ञदत्तः इति पश्यति वा
यज्ञदत् आधार आधेयभावः रामः पुत्रत्वम्
अस्तु तत् साधु भगिनि तदभवत् पञ्चमपुटे एकं चित्रं यज्ञदत्तः आधेयः इति दत्तं खलु एकं बाक्स् अस्ति अस्तु वसुप्रदा भगिनी प्राप्तवती इति भाति भगिनी वदति वा वसुप्रदा भगिनी समीचीनं भगिनी किन्तु हा वसुप्रदा भगिनी वदतु अधुना निष्ठा उपयुज्य यज्ञदत्ते किम् अस्ति इति उक्त्वा
यज्ञदत्तनिष्ठा आदेयता आसनं निष्ठा अधिकरणता
आसननिष्ठा अधिकरणता तस्य अर्थः कः भगिनि पुनः
यज्ञदत्ते
आधेयता यज्ञदत्ते अस्ति इति वार्तां यज्ञदत्तनिष्ठ आधेयता इति वक्तुं शक्यते अपि च आसने सप्तमी प्रयोगः तत्र आसने सप्तमी विभक्ति आसने अधिकरणता अस्ति इति वार्ताम् आसननिष्ठ अधिकरणता इति न्यायभाषया वक्तुं शक्नुमः समीचीनम्
समीचीनम्
अस्तु इदं तु केवलम् उदाहरणम् अस्माकं मूलविषयः द्रव्यगुणनिरूपणम् इत्यादिकम् अस्ति अस्तु सर्वे तर्हि षष्ठे पुटे पुटं प्रति गच्छन्तु अपि च यथा जयन्ती भगिनी तत्र चाट् मध्ये प्रेषितवती अहं षष्ठपुटम् इति वदामिश्चेत् पेज् नम्बर् इन् द बुक् इति पी डि एफ् मध्ये न 6 इति पेज् नम्बर् दृश्यते वा पुस्तके षष्ठपुटे तद् पश्यतु तत्र सरला भगिनी वक्तुं शक्नोति वा भवती अधुना हा समीचीनं भगिनि तर्हि षष्ठे पुटे चित्रमस्ति खलु आसनं निष्ठा अधिकरणता अधुना हा तत् सर्वम् उपयुज्य यज्ञदत्तस्य वर्णनं करोतु कृपया
आसननिष्ठ अधिकरणता निरूपित आधेयतवान् यज्ञदत्त वा आसननिष्ठ अधिकरणता निरूपत आधेयत आश्रय यज्ञदत्तः
आम् बहु समीचीनम् अस्ति भगिनि आधेय क्षम्यतां यज्ञदत्तः कीदृशः इति चेत् अस्माकं ज्ञानमस्ति अधुना यज्ञदत्तः आधेयः तस्मिन् आधेयता अस्ति अपि च आसनम् अधिकरणं तस्मिन् अधिकरणता अस्ति इति अस्माकं ज्ञानमस्ति तत् सर्वम् उपयुज्य अधुना भगिनी यज्ञदत्तः कीदृशः इति यज्ञदत्तस्य वर्णनं कृतवती अस्तु भगिनि तद्वदेव आसनम् इत्यस्य वर्णनं
यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणतावत् आसनं वा यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणता आश्रय आसनम्
आसनम् इति आगच्छति अस्तु समीचीनम् इदानीं निरूपकनिरूप्यभावः कयोः मध्ये अस्ति भगिनि वस्तुतः
अधिकरणता आधेयता तयोः मध्ये निरूपकनिरूप्यभावः अस्ति.
हा, निरूपकनिरूप्यभावः तु तयोः मध्ये अस्ति खलु. निरूपिता इत्यस्य पदस्य परितः ये पदे स्तः अधिकरणता आधेयता तयोः मध्ये निरूपकनिरूप्यभावः. अधुना कोऽपि ज्ञातुम् इच्छति चेत् आधेयता कीदृशी इति तदा किं वक्तुं शक्यते भगिनि?
आधेयता कीदृशी? आसननिष्ठा निष्ठ अधिकरणता 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 आसनं निरूपच यज्ञदत्तनिष्ठ आधेयता.
भवती यदुक्तवती तत् सर्वं समीचीनमेव, किन्तु आसननिष्ठ अधिकरणता निरूपित आधेयता इति तावत्पर्यन्तं गन्तुं
तावत्पर्यन्तम् अस्तु.
ततः अग्रे अपि आधेयता कुत्र वर्तते?
आधेयता गुणे वर्तते वा यज्ञदत्त दत्ते अस्ति?
हा, यज्ञदत्ते आधेयता वर्तते किल. तद् कथं वक्तुं शक्नोति निष्ठ उपयुज्य?
यज्ञदत्तनिष्ठ आधेयता.
हा, तद् उपयुज्य अधुना वदतु.
यज्ञदत्तनिष्ठ आधेयता निरूपित
आसनं
वा अधिकरणता आशय आसनं?
मम आशय
केवलम् आधेयता यज्ञदत्तनिष्ठ आधेयता.
तत् सत्यमेव, किन्तु
अधिकरणता आसनं निष्ठ अधिकरणता निरूपित आधेयता
यज्ञदत्तनिष्ठ आधेयता.
हा, विद्याभगिनी समीचीनम्. आसननिष्ठ अधिकरणता निरूपित यज्ञदत्तनिष्ठ
आधेयता.
न्यायशास्त्रे तस्य प्रामुख्यम् अधिकरणता कीदृशी आधेयता कीदृशी इति आगच्छति चेत् आसननिष्ठ अधिकरणता निरूपित यज्ञदत्तनिष्ठ आधेयता इति भवेत्, अथवा यज्ञदत्तनिष्ठ आधेयता निरूपित आसननिष्ठ अधिकरणता तथा भवति. बुद्धम्? हा, सम्यक् अस्ति भगिनि. अधुना का सुमित्रा भगिनि अधोभागे पुनः नमस्कारः. केन स्वागतं वा एकनिमिषं. मुरलीमहोदय इति भाति. मुरलीमहोदय किञ्चित् अस्तु. सुमित्रा भगिनी भवती अधोभागे चित्रमस्ति खलु, तस्य विवरणं करोति वा? द्रव्यं गुणः प्रथमतया गुणः कुतश्चित् कुतश्चित् एको आगच्छति, सर्वे कुर्वन्तु.
सम्यक्तया न श्रूयते भगिनि. गुणः द्रव्यम् इति अस्ति खलु, तत्
एकनिमिषं भगिनि. हा, अधुना वदतु भगिनि.
गुणः द्रव्यम् इति अस्ति खलु कोष्टके, तत्
सत्यं.
निष्ठा उपयुज्य
सत्यं. यथा यथा सरला भगिनी केनचित्
नमस्कारं भगिनी, दिस् इस् मुरळि. हलो,
महोदय.
हा, नमस्कारं भगिनि.
आमाम्, श्रुतं महोदय, धन्यवादः.
ऐ एम् नाट् वेल् एक्चुलि, सो जस्ट् जस्ट् ओन्ली केम् फ्रम् दि हास्पिटल्.
अस्तु महोदय.
सो ऐ हव् डन् द होम् वर्क् एव्रिथिङ्ग् फिनिश्ड् इट्. यु केन् आस्क् क्वश्चन्स् मेडम् प्लीस्.
श्योर् श्योर्, ओके महोदय, धन्यवादः.
थेङ्क् यू, नमस्कारः. थेङ्क् यू.
हा, अधुना सुमित्रा भगिनी षष्ठे पुटे एकं कोष्टकं सरला भगिनी यथा उक्तवती तथा.
द्रव्यनिष्ठा अधिकरणता निरूपिता आदेयताश्रयः गुणः अथवा गुणनिष्ठ आदेयता निरूपित अधिकरणाश्रयः द्रव्यम् इति.
हा बहु समीचीनमस्ति भगिनि. तर्हि गुणः कीदृशः, द्रव्यं कीदृशम् इत्यस्य उत्तरं प्राप्तम्. अधुना अहम् आधेयता कीदृशी इति ज्ञातुमिच्छामि चेत्
गुणनिष्ठा,
गुणनिष्ठा आधेयता इति तु सत्यं, परन्तु द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता इति आगच्छति.
आं भगिनि श्रूयते.
कुतश्चित् एको अस्तु वदतु भगिनि.
गुणनिष्ठा आधेयता निरूपिता. द्रव्यनिष्ठा अधिकरणता निरूपिता.
प्रथमतया आधेयता कीदृशी इति अहं पृच्छामि चेत् अपर् लेफ्ट् हेण्ड् अपर् रैट् हेण्ड् कार्नर् मध्ये यत्किमपि अस्ति तस्य विवरणम् अपेक्षितम् इति. तर्हि योर् टार्गेट् शुड् बि आधेयता अट् द एण्ड् आफ़् इट्.
टार्गेट् शुड् बि
आधेयता. अस्तु, कथं वदति? द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता इति वक्तव्यम्. उपरि गमनार्थं निष्ठा इति खलु?
उपरि गमनार्थं निष्ठा. द्रव्यनिष्ठा अधिकरणता निरूपित गुणनिष्ठ आधेयता.
हा, बहु सम्यक्. विजया भगिनी, विजया
अस्तु भगिनि.
मम प्रश्नः अस्ति अधुना तत् तच्चित्रं दृष्ट्वा अधिकरणता कीदृशी इति वदतु.
अधिकरणता आसननिष्ठा अधिकरणता
तावद् न पर्याप्तम् अधुना. यथा
आसननिष्ठा अधिकरणता निरूपित आधेयता आश्रयगुणः.
द्रव्यनिष्ठ अधिकरणता निरूपित आधेयताश्रयगुणः तत्तु सत्यं
गुणः
तदुक्तवती. अधुना आधेयता कीदृशी इति चेत् द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता इति आगच्छति. अस्तु, तद्वद् अधोभागे गुणः द्रव्यम् इति
गुणनिष्ठा आधेयता निरूपित अधिकरणता द्रव्यम्
अधिकरणतावत् द्रव्यम्
अधिकरणताश्रये द्रव्यम्
द्रव्यम्. अस्तु, इदानीम् अधिकरणता कीदृशी इति वर्णनं करोतु.
अधिकरणता
कोऽपि साहाय्यं करोति वा अत्र?
अधिकरणता अस्ति, आसने अधिकरणता अस्ति.
अहं वदामि वा
द्रव्ये अधिकरणता?
अस्तु अस्तु, एकनिमिषः भगिनि. अस्तु, सङ्गीता भगिनी आगच्छामि. अस्तु, शशिकिरणमहोदय भवान् प्रयत्नं करोतु.
गुणनिष्ठ आधेयता निरूपित द्रव्यनिष्ठ अधिकरणता.
आं, बहु समीचीनं महोदय. द्रव्यनिष्ठ अधिकरणता इति वक्तव्यं. गुणनिष्ठ आधेयता निरूपित द्रव्यनिष्ठ अधिकरणता. अस्तु, इदानीम् अग्रिमपुटे इत्युक्ते सप्तमे पुटे पश्यन्तु सर्वे. अस्तु, सप्तमे पुटे उपरितनभागे द्रव्ये किं किम् अस्ति इति प्रदर्शितम्. अस्तु, शशिकरणमहोदय वदतु, द्रव्ये किं किम् अस्ति?
द्रव्ये गुणः अस्ति, द्रव्ये कर्म अस्ति, द्रव्ये सामान्यमस्ति, अनन्तरं विशेषः, समवायः, अभावः इति सर्वे द्रव्ये सन्ति.
हा, सर्वे द्रव्ये सन्ति. अस्तु, तर्हि अधुना भवता यद् निरूपितं तत्तु द्रव्यम् अपि च गुणः, अनयोः मध्ये कीदृशसम्बन्धः इति निरूपितम्. अधुना द्रव्ये कर्म अस्ति खलु, द्रव्ये कर्म अस्ति इति कृत्वा तस्मिन्नेव चित्रे गुणस्य स्थाने कर्म इति स्थापयित्वा करोतु.
तत्रापि द्रव्यम् अनन्तरं कर्मयोः कर्म मध्ये प्रथमं तु कर्मनिष्ठा आधेयता अस्ति, अनन्तरं द्रव्यनिष्ठा अधिकरणता अस्ति. द्वयोः मध्ये इदानीं द्रव्यनिष्ठा अधिकरणता निरूपित कर्मनिष्ठा आधेयता.
द्रव्यनिष्ठा अधिकरणता निरूपित कर्मनिष्ठा आधेयता. बहु समीचीनं महोदय. अस्तु, तर्हि विपरीतदिशि.
विपरीतदिशि कर्मनिष्ठ आधेयता निरूपित द्रव्यनिष्ठ अधिकरणता अथवा अधिकरणाश्रयः द्रव्यम्.
अधिकरणताश्रयः द्रव्यं. बहु सम्यक् इत्येव. समीचीनम्. इति अस्माकं गृहपाठः आसीत् किल, अस्य वर्गस्य गृहपाठः तदेव आसीत्. तर्हि अधुना सङ्गीता भगिनी, भवती द्रव्यम् अपि च सामान्यम् इति स्वीकृत्य वाक्यं रचयति वा?
अत्र अत्र द्रव्यम् अधिकरणं सामान्यं किल.
द्रव्यम् अधिकरणं सामान्यं किं?
सामान्यम् आदेयम्.
आदेयः. हा, सम्यक्. तर्हि
आदेयः द्रव्यनिष्ठ अधिकरणतायाः विवरणं द्रव्यनिष्ठ आदेयता निरूपित.
द्रव्ये किमस्ति, आधेयता अस्ति वा अधिकरणता अस्ति वा द्रव्ये?
द्रव्ये आधारता भवति.
आधारता भवति अथवा अधिकरणता भवति द्रव्ये, न तु आधेयता.
अधिकरणता अधिकरणता भवति द्रव्ये. अधिकरणता भवति
अथवा एकनिमिषं स्पष्टीकरणार्थं वदामि. द्रव्ये अधिकरणता भवति अथवा आधारता भवति. अस्तु,
अस्तु.
आधारता
अधिकरणता
आधारता अपि वक्तुं शक्नोति, किन्तु आधेयता इति न वक्तव्यं. द्रव्ये आधेयता नास्ति. आधेयता कुत्र कुत्र वर्तते? केवलं गुणे, कर्मणि, सामान्ये, विशेषे, समवाये, अभावे इति. खलु?
न अवगतं भगिनि.
न भगिनि, द्रव्यनिष्ठ आधेयता इति उक्तवती. केवलं
द्रव्यनिष्ठ आधेयः
केवलं ज्ञापनार्थं वदामि. द्रव्ये आधेयता नास्ति, द्रव्ये अधिकरणता एव सर्वदा.
द्रव्ये अधिकरणता भवति, सामान्ये आधेयता भवति.
सम्यक्. अस्तु, वदतु अधुना.
गृहपाठं न कृतवती अहं, किञ्चित् कन्फ्यूशन् भवति.
चिन्ता नास्ति भगिनि, अधुना समीचीनमेव. वदतु अग्रे.
द्रव्यनिष्ठा अधिकरणता निरूपित सामान्यनिष्ठा.
बहु समीचीनं भगिनि. द्रव्यनिष्ठ अधिकरणता निरूपित सामान्यनिष्ठ आधेयता. अस्तु, विपरीतदिशि.
सामान्यनिष्ठ आधेयता निरूपित द्रव्यनिष्ठ अधिकरणता.
हा, बहु सम्यक् अस्ति. सम्यक्. तर्हि द्रव्यम् अधिकरणं चेत् तस्य अधिकरणता कीदृशी इति भगिन्या उक्तम्. अपि च सामान्यम् आधेयः चेत् तस्य आधेयता कीदृशी इति भगिन्या उक्तमपि. अस्तु, मनसि भवेत् यत् द्रव्यमेव अधिकरणं सर्वदा. अधुना द्रव्ये द्रव्यमपि भवति. द्रव्ये द्रव्यं भवति चेत् तत्र द्रव्यम् अधिकरणं, द्रव्यम् आधेयः. नो चेत् गुणकर्म, सामान्यं, विशेषः, समवायः, अभावः, येषां सर्वदा द्रव्यमेव अधिकरणम् इति मनसि भवेत्. अस्तु, अधुना अजितमहोदय प्रयत्नं करोति वा द्रव्यम् अपि च विशेषः इति स्वीकृत्य?
तत्र द्रव्ये अधिकरणता भवति, विशेषे आधेयता भवति. विशेषस्य निरूपणं द्रव्यनिष्ठ अधिकरणतानिरूपित आधेयता आधेयताश्रयः विशेषः.
हा, बहु समीचीनं महोदय. अधुना विशेषे आधेयता अस्ति खलु, विशेषस्य विशेषस्य आधेयता कीदृशी इति प्रश्ने कृते उत्तरं किम्?
विशेषस्य आधेयता कीदृशी इत्युक्ते द्रव्यनिष्ठा अधिकरणता निरूपिता विशेषनिष्ठा आधेयता इति।
बहु सम्यक् महोदय। अपरस्मिन् दिशि
अपरस्मिन् दिशि विशेष आधेयतायाः निरूपणं वा भगिनि?
आधेयतायाः निरूपणं कृतं भवता, अधिकरणतायाः निरूपणम्।
अधिकरण विशेषनिष्ठा आधेयता निरूपिता द्रव्यनिष्ठा अधिकरणता इति।
हा, बहु सम्यक् महोदय। अथवा इदानीम् अहं द्रव्यस्य निरूपणम् इच्छामि चेत्?
द्रव्यस्य निरूपणम् अस्ति विशेषनिष्ठा अधेयता निरूपिता अधिकरणादाश्रयः द्रव्यम् अथवा अधिकरणदावत् द्रव्यम् इति।
बहु सम्यक्, समीचीनं, तथैव। तर्हि हा, अग्रे मुरली महोदय, भवान् कर्तुम् इच्छति वा द्रव्यम् अपि च समवायः अनयोः मध्ये?
समवायः द्रव्यनिष्ठ अधिकरणतानिरूपित आदेय आश्रयवान् समवायः।
आधेयतावान् समवायः, समीचीनमस्ति महोदय। तर्हि वान् वान् अथवा आश्रयः उभयोः मध्ये एकस्य प्रयोगः भवेत्। इत्युक्ते ऐदर् यूस् वान् और् ऐदर् यूस् आश्रयः। तर्हि द्रव्यनिष्ठ अधिकरण
द्रव्यनिष्ठ अधिकरणता निरूपित समवायः
द्रव्यनिष्ठ अधिकरणता निरूपित आधेयतावान् समवायः अथवा
आधेयताश्रय अथवा आधेयवान्।
अस्तु, इदानीं विपरीतदिशि गच्छतु।
विपरीतदिशि समवायनिष्ठ समवायः निष्ठ आधेयता निरूपित अधिकरण आश्रय वात् अधिकरण आश्रयवात् द्रव्यम् अधिकरण आश्रयः अथवा अधिकरणवात् द्रव्यम्
अधिकरणता आश्रयः अथवा अधिकरणतावत् द्रव्यम् इति वक्तव्यम्। अस्तु, बहु समीचीनम्। तर्हि विद्या भगिनी, अधुना अस्मिन् सन्दर्भे आदेयतायाः निरूपणं करोति वा?
समवायः द्रव्यम् इत्यनयोः मध्ये वा?
सत्यं भगिनि।
अस्तु, आदेयता
भगिनि
वदामि वा?
हा, वदतु भगिनि।
आदेयता श्रूयते, आदेयता कीदृशी इति चेत् तत्र द्रव्यनिष्ठ अधिकरणता निरूपित समवायनिष्ठ आदेयता, अनन्तरम् अधिकरणता कीदृशी इति चेत् समवायनिष्ठ आदेयता निरूपित द्रव्यनिष्ठ अधिकरणता।
हा, सम्यक्। तर्हि स्पष्टं जातं खलु, द्रव्यं समवायः अनयोः सम्बन्धः अपि च अनयोः अधिकरणता आधेयता अनयोः निरूप्यनिरूपकभावः स्पष्टतया ज्ञातम्। अस्तु, अन्ततो गत्वा द्रव्यम् अपि च अभावः इति अस्ति। सव्यसाचि महोदय समापयितुं शक्नोति वा तत्र?
आं भगिनि, तर्हि
एकनिमिष, विजया भगिनी भवत्या म्यूट् करणीयं कृपया।
अहं वदामि भगिनि, अहं वदामि।
अग्रे भवतः, अस्तु वदतु भगिनि।
भगिनि
वदतु, भगिनि विजया भगिनि वदतु तर्हि, द्रव्यमपि च
अभावः खलु?
सत्यम्, अभावः द्रव्यनिष्ठ अधिकरणता न तु आधेयता। हा, वदतु इदानीं।
द्रव्यनिष्ठ अधिकरणता निरूपित अभावः निश्च आधेयता।
हा, बहु समीचीनं। द्रव्यनिष्ठ अधिकरणता निरूपित अभावनिष्ठ आधेयता, अथवा अहम् अभावस्य इच्छामि चेत् वर्णनं कथं क्रियते?
अभावनिष्ठ आधेयता
न अभावस्य एकनिमिष अभावस्य वर्णनम् इच्छामि. भवती यदुक्तवती आधेयतायाः वर्णनं जातम्, आधेयता कीदृशी इति. अधुना अहम् अभावः कीदृशः इति पृच्छामि चेत् तदा अस्तु सव्यसाची
आधेयत खलु.
आधेयतावान् अभावः इति वक्तव्यं. सर्वं समानमेव, द्रव्यनिष्ठ अधिकरणता निरूपित आधेयतावान् अभावः अथवा आधेयताश्रयः
निरूपित द्रव्यनिष्ठ अधिकरणता.
द्रव्यनिष्ठ अधिकरणता निरूपित आधेयताश्रयः अभावः इति अभावस्य वर्णनं. पुनः आधेयता कीदृशी इति भवती उक्तवती एव. द्रव्यनिष्ठ अधिकरणता निरूपित अभावनिष्ठ आधेयता. समीचीनं भगिनि. अधुना अपरस्मिन् दिशि गच्छतु. अपरस्मिन् दिशि गच्छति चेत् कथं भवति?
निरूपित
निरूपित
निरूपित निश्च अधिकरणतवान् तत्र एव.
हा अस्तु, तर्हि एकवारम् एकवारम् अस्तु एकवारं शृणोतु सभ्या महोदय वदति. महोदय
अधिकरणतायाः लक्षणं भगिनि खलु?
सत्यं महोदय.
अभावनिष्ठ आधेयता निरूपित द्रव्यनिष्ठ अधिकरणता.
हा बहु समीचीनं. तर्हि अधिकरणता कीदृशी इति आगतम्. अस्तु, अस्मिन् प्रसङ्गे द्रव्यं कीदृशम्?
द्रव्यं कीदृशम् इदानीं पश्यामः. अभावनिष्ठ आधेयता निरूपित अधिकरणताश्रय द्रव्यम्.
हा बहु समीचीनं महोदय. समी इति एव वार्ता. विद्या भगिनी अवगतं वा?
अवगतं भगिनि.
अस्तु, आधेयता कीदृशी अथवा अधिकरणता कीदृशी इति पृच्छामि चेत् तत्र अपर् रैट् हेण्ड् कार्नर् मध्ये अस्ति किल कोष्टके
आधेयता सर्वं गुण इत्यादीनि.
हा आधेयता गुण इत्यादिषु तत् सम्यक् एव, किन्तु अस्माकं टार्गेट् किम् अस्ति, लक्ष्यं किम् अस्ति इति दृष्ट्वा वाक्यं रचनीयम्. आधेयता कीदृशी इति सामान्यतया निरूपकनिरूप्य भावस्थले सामान्यतया तत्र अपर् रैट् हेण्ड् कार्नर् मध्ये यदस्ति आधेयता वा अधिकरणता तयोः निरूपणं भवेत्. तर्हि द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता अथवा गुणनिष्ठ आधेयता निरूपित द्रव्यनिष्ठ अधिकरणता. तर्हि उपरि गमनार्थं निष्ठ इति आगच्छति, अधोगमनार्थं वान् अथवा आश्रयः इति आगच्छति. अस्तु, गुणः कीदृशः इति चेत् आधेयतापर्यन्तं गत्वा अधोगमनम्, अधोगामिनीशरे वान् अथवा आश्रयः इति योजनीयः, उपरि गामिनीशरे निष्ठ इति योजयित्वा सर्वाणि वाक्यानि रचयितुं शक्नुमः. अत्र स्पष्टता अस्ति वा सर्वेषाम्?
भगिनि तत् स्पष्टं. मम अन्यः प्रश्नः अस्ति, अत्र अत्र सप्तपदार्थाः सन्ति, अत्र द्रव्यं तु अधिकरणता इति ज्ञातम्, अनन्तरं गुणः कर्म ते सर्वे समान. द्रव्यम् अधिकरणं तस्मिन् अधिकरणता वर्तते. अत्र प्रश्नः आसीत् मम, अत्र गुणः कर्म सामान्यम् एते सर्वे समानस्तरे एव सन्ति वा, अथवा गुणकर्मयोः मध्ये किमपि अस्ति वा अधिकरणता अधेयता
इति अग्रे पश्येम. किं किं कस्य अधिकरणं किं कस्य आधारः इति अग्रे पश्यामः. परन्तु अत्र एकं मनसि स्पष्टतया भवेत्. अस्तु, भवान् एव पठतु षष्ठे पुटे अन्तिमवाक्यमस्ति खलु, तत् पठतु. एवं सति
एवं सति द्रव्यं प्रथमतः कुतः निर्दिष्टम् इत्यस्य समाधानम् इतरे सर्वेपि द्रव्यमाश्रित्य तिष्ठन्ति इति यदुक्तं तदपि स्पष्टम्.
तस्य अर्थः कः?
अत्र तद् लिखितमस्ति, अन्य सर्वे पदार्थाः ये तत्र पूर्वमेव दर्शितं गुणः कर्म सामान्यं ते सर्वे द्रव्यं द्रव्यस्य उपरि तिष्ठन्ति अतः ते सर्वे द्रव्यम् आश्रित्य तिष्ठन्ति इति अतः द्रव्यम् अधिकरणम्
द्रव्यम् अधिकरणम् अपि च द्रव्यस्य निरूपणं प्रथमं कृतम् इति अस्माकम् अग्रिमभागः अस्ति द्रव्यस्य निरूपणम् इति तर्हि द्रव्यं सर्वेषाम् अधिकरणम् सर्वेषां पदार्थानाम् अधिकरणं भवितुम् अर्हति द्रव्यं किन्तु सर्वत्र तथा नास्ति गुणः सर्वेषाम् अधिकरणं नास्ति कर्म सर्वेषाम् अधिकरणं नास्ति इति अग्रे पश्येम किं कस्य अधिकरणम् अस्तु इतोपि एकः विषयः तत्र स्पष्टीकरणीयः अस्ति षष्ठे पृष्ठे अन्तिम एवं च इति पश्यन्ति वा एवं च उपरितनभागे अस्ति एवं च निरूप्यनिरूपकसम्बन्धः ज्ञातश्चेत् आधाराधेयसम्बन्धः इति अपि ज्ञायते तथा च प्रकृतेपि द्रव्ये गुणे तिष्ठन्ति इति आधाराधेयभावः सुज्ञेयः अत्र उक्तं यत् एवं च निरूपकनिरूप्यसम्बन्धः ज्ञातः चेत् आधाराधेयभावः आधाराधेयसम्बन्धः अपि ज्ञायते इति तत्र किमर्थं तथा उक्तम् इत्युक्ते निरूपकनिरूप्यभावः अथवा निरूप्यनिरूपकसम्बन्धः बहुत्र भवति न केवलम् आधाराधेयभावस्थले इत्युक्ते अस्माभिः दृष्टं रामः पुत्रः रामे पुत्रत्वम् अस्ति रामस्य पितरि पितृत्वम् अस्ति रामनिष्ठपितृत्व क्षम्यतां रामनिष्ठपुत्रत्वनिरूपित किं पितानिष्ठपितृत्वं तत्रापि निरूपकनिरूप्यभावः अस्ति अपि च अग्रे गत्वा कार्यकारणभावः इति आगच्छति न्यायशास्त्रे कार्यकारणता कार्यता तयोः मध्ये अपि निरूपकनिरूप्यभावः अस्ति यत्र कुत्रापि ससम्बन्धिकपदार्थौ स्तः तत्र तत्र निरूप्यनिरूपकसम्बन्धः भवत्येव कार्यकारणतमध्ये कारणतानिरूपितकार्यता अथवा कार्यतानिरूपितकारणता इति आगच्छति एव आधारादयः भावः तस्मिन् एकः तावदेव इत्युक्ते निरूप्यनिरूपकभावः इति एकं सेट् इति चिन्तयतु आधारादयभावः तस्मिन् एकं एकः सदस्यः तस्य समूहे तदर्थमेव उक्तम् अत्र निरूप्यनिरूपकसम्बन्धः ज्ञातः भवति चेत् तदा आधारादेयभावसम्बन्धः अपि ज्ञातः भवति कयोः मध्ये निरूपकनिरूप्यसम्बन्धः इति ज्ञातश्चेत् तयोः मध्ये कीदृशभावः वर्तते आधारादेयभावः वर्तते वा अथवा कार्यकारणभावः वर्तते वा इत्यादिकं ज्ञातः भवति इति वार्ता स्पष्टं वा
अस्तु भगिनि स्पष्टम् इदानीम् अग्रे पठामः धन्यवादः
अस्तु अस्तु समीचीनम् अस्तु एवं स्पष्टीकरणम् आसीत् करणीयमासीत् अधुना अस्माकं नूतनविषयः आगच्छति तत्र सप्तमे पुटे विद्या भगिनी आरम्भं कर्तुम् इच्छति वा तानि नवद्रव्याणि
अस्तु तानि नवद्रव्याणि सङ्ग्रहकारेण निर्दिष्टानि पृथ्वीयादीनि तथा च सङ्ग्रहः तत्र द्रव्याणि पृथ्व्यापतेजो वायवाकाश कालदिगात्ममनांसि नवैव इति ततः गुणान् विभजते
एवं तावत्पर्यन्तम् अत्र किं प्रदर्शितं भगिनि
अत्र पुनः तत्र द्रव्याणि नवद्रव्याणि वयं पूर्वं दृष्टवन्तः प्रथमे पृष्ठे तत्र नवद्रव्याणि सन्ति पृथ्वी आपः तेजः वायुः आकाशः कालः दिक् आत्मा मनांसि नवैव तत्र सङ्ग्रहकारेण इत्युक्ते तर्कसङ्ग्रहे वा
सत्यं तर्कसङ्ग्रहकारेण इमानि नवद्रव्याणि निर्दिष्टानि अपि च यथा मया पूर्वोक्तं यत्किमपि अस्मिन् पुस्तके बोल्ड् इटालिक्स् मध्ये अस्ति तस्य अर्थः अस्ति यत् साक्षात् तर्कसङ्ग्रहात् उद्धृतं वाक्यम् इति तर्कसङ्ग्रहे एवमेव अस्ति तत्र द्रव्याणि इति उक्त्वा पृथ्वी हा अस्तु एकवारं विभज्य किञ्चित् वदतु भगिनि तत्र किं किम् अस्ति इति नवद्रव्याणि
तत्र भगिनि भवत्याः ध्वनिः सम्यक्तया न श्रूयते भगिनि
एवं वा
केवलं मम कृते वा
अपरेषां कृते अपि तथा जयन्ति भगिनि
अत्र सम्यक् श्रूयते
अस्तु भगिनि पुनः पृच्छतु
भारतात् आह्वयति वा भगिनि
आम् आम्
अस्तु अपरस्मिन् वर्गे अपि इत्युक्ते अपरेषामपि किञ्चित् तथा आसीत् प्रायः किमपि भारतात् आह्वानेन अस्तु चिन्ता नास्ति अहं पृष्टवती तद् वाक्यं यद् भवती पठितवती तद् किञ्चित् विभज्य पठतु इत्युक्ते बहवः सन्धयः सन्ति खलु पृथ्वी अप् तेजौ इत्यादिकं तर्हि विभजन
तत्र द्रव्याणि पृथ्वी आपः तत्र यण् सन्धिः भूत्वा पृथ्व्याप
अत्र अप् इति अस्ति
अप् पृथ्व्यप् या अप् अस्तु आपः नास्ति अप् पृथ्व्यप् तेजो वायवः वायवौ तत्र वायुः आकाशः तत्र वायवाकाशः वायु तत्र यण् सन्धिः वाय
हा पुनः यण् सत्यम् समीचीनम्
यण् सन्धिः वाय वायवाकाशः वायुः आकाशः वायवाकाशः काल दिक् दिक् तत्र जष्टुसन्धिः भूत्वा दिक् आत्म मनांसि नवैव
हा समीचीनं भगिनि तर्हि पृथ्वी अप् अप् इति तत्र प्रातिपदिकत्वेनैव अस्ति वस्तुतः आपः इति भवती यदुक्तवती तत् समीचीनमेव जलम् इत्युक्ते आपः तत्र बहुवचने एव भवति किन्तु अत्र प्रातिपदिकत्वेन तिष्ठति पृथ्वी अप् इत्युक्ते जलं तेजः इत्युक्ते अग्निः अग्निः वस्तुतः तेजसि अन्तर्भूतः एकं द्रव्यं वायुः आकाश काल दिक् जस्तु वसन्ति भवत्या उक्तं समीचीनमेव दिक् आत्म मनः इति तत्सर्वं मिलित्वा अत्र द्वन्द्वसमासः इतरेतरद्वन्द्वः तदर्थं मनांसि इति बहुवचने अस्ति पृथ्वी अप् तेजो वायुवाकाश काल दिगात्मा मनांसि इति कति द्रव्याणि नवद्रव्याणि
नवद्रव्याणि
नवद्रव्याणि इति केवलं नाम्ना निर्देशनम् अन्यत् किमपि नास्ति अत्र यथा उक्तमासीत् पूर्वम् उद्देशग्रन्थे तथैव नाम्ना निर्देशनं क्रियते नवद्रव्याणि इति समीचीनम् अस्तु अनन्तरं श्रीवल्ली भगिनी अस्ति वा श्रीवल्ली भगिनी न स्यात् अनन्तरं शिवराम कुलकर्णी महोदय अग्रे हा
ततः गुणान् गुणान् विभजते रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्कत्वसंयोगविभागपरत्व अपरत्व गुरुत्व द्रव्यत्व स्नेह शब्द बुद्धि सुख दुःख इच्छा द्वेष प्रयत्न धर्म अधर्म संस्काराः चतुर्विंशतिः गुणाः इति
पुनः अत्रापि किमपि नास्ति नाम्ना निर्देशनं कति गुणाः महोदय
चतुर्विंशतिगुणाः तत्र सन्ति
चतुर्विंशतिगुणाः पुनः समीचीनम् इत्येव इतरेतरद्वन्द्वः बहु
सम्यक् मध्ये मध्ये कानिचन स्थाने सन्धिः
अस्ति चतुर्विंशतिगुणाः इतोपि एकवारं मन्दं मन्दं पठतु विभज्य पठतु मन्दं सर्वेषाम् अवगमनं भवेत् इति
ततः गुणान् विभजते रूप रस गन्ध स्पर्श संख्या परिमाण पृथकत्व संयोग
पृथक्त्व
पृथक्त्व संयोग विभाग परत्व अपरत्व गुरुत्व द्रव्यत्व स्नेह गुरुत्व द्रवत्व स्नेह शब्द बुद्धि सुख दुख इच्छा द्वेष प्रयत्न धर्म अधर्म संस्कार चतुर्विंशतिगुणः
बहु सम्यक् अस्ति इति चतुर्विंशतिगुणः अस्माभिः किञ्चिदेव परिचयत्वेन गुणस्य विषये किञ्चिदेव परिचयत्वेन अस्माभिः दृष्टमासीत् प्रथमे पुटे एव पश्यन्तु पृथिव्यां गन्धः अस्ति जले शैत्यम् अस्ति तेजसि औष्ण्यम् अस्ति वायौ स्पर्शः इति गुणः आकाशे शब्दः काले सङ्ख्या दिशि सङ्ख्या आत्मनि ज्ञानं मनसि अपि सङ्ख्या इति किञ्चिदेव परिचयत्वेन अस्माभिः गुणस्य विषये ज्ञातं किन्तु वस्तुतः चतुर्विंशतिगुणाः सन्ति इति जानन्तु केवलं रूपरसगन्धस्पर्श इति न ततः अग्रे अपि यथा महोदयेन उक्तं पृथक्त्वं संयोगविभागादयः गुणाः सन्ति यस्य विषये इतोपि किञ्चित् अग्रे गत्वा पश्येम इति अस्तु समीचीनम् इति द्रव्यस्य निरूपणं गुणस्य निरूपणं सञ्जातम् इति निरूपणमपि न केवलं नाम्ना सङ्कीर्तनम् उद्देशविभागे तदेव भवति नाम्ना सङ्कीर्तनं तर्हि तदेव जातम् अत्र पुनः रूपरसगन्ध इति वाक्यमपि तर्कसङ्ग्रहादेव उद्धृतं वाक्यं तत्र अस्तु अग्रे वसुप्रदा भगिनी पठति वा
अस्तु भगिनि केचन दार्शनिकाः कर्म इति पदार्थ नाङ्गीकुर्वन्ति अतः कर्मणि अस्ति अतः कर्मणि अस्ति विवादः न तथा गुणेषु न तथा गुणेषु गुणानाम् यत्ताविषये विवादसत्त्वेपि गुणः अतिरिक्तपदार्थः वर्तेन वा इति वर्ततेन वा इति नास्ति विवादः अतः गुणकर्मणोः मध्ये गुणा एव द्रव्यनिर्देशोत्तरं निर्दिष्टाः
किञ्चित् अवगतवती वा भगिनी प्रतिपादयितुं शक्नोति किम् अथवा साहाय्यं कुर्मः
साहाय्यं
अस्तु समीचीनं समीचीनं सरला भगिनी तर्हि पुनः शृणोतु अस्तु वसुप्रदा भगिनी प्रश्नः अस्ति चेत् पृच्छतु कृपया अस्तु सरला भगिनी
अस्तु अस्तु भगिनि कर्मपदार्थ सर्वे आम् उच्चार्यते भगिनि
वाक्यशः गच्छतु सर्वेषाम् अवगमनं
केवल दार्शनिकाः कर्म इति पदार्थ न अङ्गीकुर्वन्ति कर्मपदार्थ सर्वे न्यायिकाः वा दार्शनिकाः तेषां गते न स्वीकृतं भवति अतः कर्मणि अस्ति विवादः कर्मपदार्थे विवादम् अस्ति पदार्थं स्वीकुर्मः वा न स्वीकुर्मः न तथा गुणेषु तथा एता स्थितिः गुणपदार्थे नास्ति गुणानां इयता विषये विवादसत्त्वे अपि गुणः अतिरिक्तपदार्थ वर्तते न वा इति नास्ति विवादः गुणानां यः भावः अस्ति इयता विषये इयता भावः अस्ति गुणे तस्य तत्प्रति कोऽपि विवादः नास्ति तस्य विलक्षणम् अपि को विवादः नास्ति अतः
इयत्ता इति पदस्य अर्थः कः
कियत् इयत् इति शब्दे जो शब्दो तेषा तयोः भावः अस्ति इयता भावः
कियत् इयत् तावत् इति वयं जानीमः खलु, तावत् इत्यस्मिन् अर्थे एव इयत् इति. तस्य भावः इयत्ता, यथा भाववाचकपदं निष्पादयामः ता उपयुज्य, तल् प्रत्ययम् उपयुज्य, अधिकरणता, सुन्दरता, तद्वत्. इयत् इत्युक्ते कति इति चिन्तयतु. अस्तु, इयत् पदस्य भावः इयत्ता. तर्हि अत्र विवादः कुत्र अस्ति भगिनि?
विवादः अस्ति कर्मणि, कर्मपदार्थे, न तु गुणपदार्थे.
न तु गुणपदार्थे, हा, गुणपदार्थे किमर्थं विवादः नास्ति?
तस्य कोऽपि विलक्षणं कुत्रापि वर्तते या न वर्तते, तस्य को विवादः नास्ति. गुण द्रव्ये तिष्ठति, कति गुणाः द्रव्ये तिष्ठति, तस्य कोऽपि विवादः नास्ति. किन्तु कर्म पदार्थे तस्य विवादम् अस्ति, द्रव्ये अस्ति वा नास्ति.
अत्र वार्ता का इति चेत् कर्मणि कर्म अस्ति न वा इति विवादः, कर्मस्य सत्त्वस्य विषये एव विवादः.
अस्तु,
हलो, अतः कर्मणि अस्ति विवादः. यतोहि केचन दार्शनिकाः, केचन नैयायिकाः कर्म न अङ्गीकुर्वन्ति एव, कर्म इति एकः पदार्थः इति न अङ्गीकुर्वन्ति. परन्तु गुणविषये तथा नास्ति. गुणः इति पदार्थः अस्ति, गुणस्य सत्त्वम् अथवा गुणस्य सत्ताविषये विवादः नास्ति, वैमत्यं नास्ति. केवलं गुणस्य इयत्ता विषये, कति गुणाः इत्यस्य विषये विवादः अस्ति. अस्तु, अतः गुणस्य सत्त्वस्य विषये विवादः नास्ति, कर्मस्य सत्त्वस्य विषये एव. अस्माकं, भवती तु जानाति एव, नव्यनायायिकाः, प्राचीननायायिकाः इति अस्माभिः वारं वारं पठ्यते खलु, अपरेषाम् उभयोः मतं. तर्हि उभयोः मध्ये वैमत्यम् अस्ति कर्मणः सत्तायाः विषये, परन्तु गुणस्य विषये तादृशवैमत्यं नास्ति. केवलं कति गुणाः, कति गुणाः, चतुर्विंशति वा न वा इत्यस्य विषये विवादः. अस्तु, अतः
गुणकर्मणो मध्ये गुण एव द्रव्यनिर्देशतोत्तरं निर्दिष्टः. अतः यदि गुणकर्मणो मध्ये द्रव्यनिर्दिष्टं प्रति वयं गुण आदाय द्रव्यस्य निरूपं कुर्मः, न तु गुण कर्म आदाय.
हा, समीचीनं.
सन्देहः अस्ति,
वदतु भगिनि.
द्रव्याणि कर्मणि ससम्बन्धिक एव खलु जि, खलु भगिनि? रूप, रसगन्ध इत्यादि, पृथिवी, आफ् तेजस्, एकैक परस्परसम्बन्धः एव अस्ति खलु.
परस्परसम्बन्धः इत्युक्ते किम् इत्युक्ते, पृथिव्यां पृथिवी इति एकविधद्रव्यम्, अप् इति एकविधद्रव्यं, वन् टैप् आफ् द्रव्यं, तस्मिन् गुणः भवितुम् अर्हति, कर्म भवितुम् अर्हति, सामान्यम् अर्हति एव. सामान्यं
तेजः इत्युक्ते रूपः परस्परं तत्र अस्ति खलु जि.
सत्यं सत्यं, तेजसि
पृथिवी अस्ति चेत् तत्र गन्धः अस्ति, एकैक परस्पर ससम्बन्धिक एव अस्ति खलु. इदानीं विवादः कुत्र अस्ति तत्र?
एकनिमिषः, अस्माकं विवादः, एकनिमिषः भगिनि शृणोतु, अस्माकं विवादः तस्य विषये नास्ति. अस्तु, नवद्रव्याणि इति उक्तं, तत्र विषयः समाप्तः द्रव्यस्य. यथा विद्या भगिनी,
द्रव्याणि चतुर्विंशतिगुणाः इति एतत् परस्परसम्बन्धिक एव तत्र अस्ति.
सम्बन्धिकसम्बन्धः स्यात् भगिनि, यदा आधारादयभावः भवति तदा सम्बन्धः भवति, तस्य विषये विवादः नास्ति. अस्माकं विवादः अस्ति चतुर्विंशतिगुणाः सन्ति न वा, 24 इति गुणस्य संख्या, तावन्तः गुणाः सन्ति न वा, अथवा तस्मात् अधिकाः, तस्मात् अधिकाः गुणाः सन्ति वा, तस्मात् न्यूनाः गुणाः सन्ति वा, तस्य विषये विवादः अस्ति नैयायिकानां मध्ये.
धन्यवादः.
किन्तु गुणः इति पदार्थः वर्तते इति सर्वे अङ्गीकुर्वन्ति. यथा द्रव्यम् इति एका श्रेणी अस्ति, तद्वत् गुणः इति एका श्रेणी अस्ति, तदर्थमेव द्रव्यम् इति एकः पदार्थः, गुणः इति एकः पदार्थः. तत्र कोऽपि विवादः नास्ति. परन्तु कर्मविषये विवादः अस्ति. कर्म इति श्रेणीं कल्पयितुम् इच्छामः न वा इत्यस्य विषये. कर्म इति श्रेणी सप्तपदार्थाः सन्ति खलु, द्रव्यगुणकर्म. तेषु सप्तपदार्थेषु कर्मस्य स्थानम् अर्हति न वा, कर्म इति अन्यतमः पदार्थः आवश्यकः वा न वा इत्यस्य विषये अस्ति विवादः. इत्येव वार्ता. तदर्थं द्रव्यमिदं द्रव्यं
भगिनि भगिनि तस्य क्षम्यतां, कर्म इति विषये चिन्तयति, कर्म इति पदार्थं वर्तते वा न वा, साधु वा? कर्म इति पदार्थः न वर्तते चेत् अन्ये कोऽपि तत् स्थाने अन्ये कोऽपि गुणः अस्ति वा?
न न, एतेषां मतं किं स्यात् इत्युक्ते कर्म इति पदार्थः एव मास्तु इति. षड् पदार्थाः भवन्तु, द्रव्यगुणसामान्यविशेषः समवयः अभावः इति षड् भवतु. कर्म इति इतोपि
कर्म इति विषये नास्ति,
नास्ति
वस्तुतः नास्ति,
वस्तुतः नास्ति इति न. केषाञ्चित् न्यायिकानां मते अस्ति, केषाञ्चित् न्यायिकानां मते नास्ति. तत्र वैमत्यम् इति कृत्वा प्रथमं गुणं निर्दिष्टवन्तः, तदनन्तरं कर्म इति आगच्छति. अस्तु, अग्रे कर्म इति एव भवती पठतु भगिनि.
क्षम्यतां भगिनि, मम एकः प्रश्नः अस्ति. अत्र कर्मणि इत्यस्मिन् विषये विवादः अस्ति इति उक्तं, परन्तु कर्मणि अपि गुणाः सन्ति खलु. तत्र यदि कर्मणि इति पदार्थः नास्ति चेत् तस्मिन् विद्यमानः गुणः तस्य का गतिः?
कर्मणि गुणः नास्ति भगिनि, वस्तुतः
कर्मणि द्रव्यं, कर्मणि इत्यस्मिन् द्रव्ये गुणः भवति न भवति.
कर्म इति द्रव्यं
पदार्थः अस्ति,
द्रव्यं नास्ति. कर्म इति अन्यतमः पदार्थः. अस्माकं वैमत्यं कुत्र इति चेत् सप्तपदार्थाः इति उक्तं खलु, इत्युक्ते तस्यां श्रेण्यां कर्मस्य स्थानं, कर्मणः स्थानम् अस्ति. द्रव्यगुणकर्म सामान्यं विशेष कर्मणः स्थानम् अस्ति तत्र. परन्तु केचन नैयायिकाः वदन्ति कर्म इति अपरः पदार्थः एव मास्तु इति. तस्य का आवश्यकता? प्रायः कर्मणा यत्किमपि निरूप्यते तद् अपरैः पदार्थैः निरूपयितुं शक्यते किल, तद् तस्य आवश्यकता का इति वैमत्यमस्ति. अग्रे गत्वा पश्यामः, एवं पूर्वपक्षीसिद्धान्ती मतभेदः वर्तते एव.
धन्यवादः भगिनि.
तत् कृत्वा वस्तुतः गुणस्य विषये तादृशवैमत्यं नास्ति इति कृत्वा गुणः द्रव्यानन्तरं निरूपितं, तत्र स्पष्टता अस्ति इति कृत्वा. बुद्धं वा?
हरि ओं भगिनि. अतः गुणकर्मणो मध्ये किञ्चित् विवरणं करोतु वाक्यस्य.
विवरणम् इत्युक्ते किं महोदय?
अतः गुणकर्मणो मध्ये गुणः एव द्रव्यनिर्देशोत्तरं निर्दिष्टः, द्रव्यनिर्देशोत्तरं निर्दिष्टः.
हा,
स्पष्टता करोतु.
अस्तु, अतः गुणकर्मणोः मध्ये अस्माकम् एका श्रेणी अस्ति. प्रथमं द्रव्यस्य निरूपणमिति, क्षम्यतां, निरूपणम् इति न वक्तव्यं, निर्देशः इति एव, यतोहि नाम्ना द्रव्यस्य निर्देशः जातः प्रथमं, यद् हा गुणस्य अपि जातः, कर्मणः न जातः एतावत्, उल्लेखः अभवत्. तदर्थमेव वदन्ति गुणकर्मणोः मध्ये गुणस्य प्रथमतया निर्देशः जातः, न तु कर्मणः. किमर्थम् इति चेत् गुणस्य सत्त्वस्य विषये वैमत्यं, विवादः नास्ति. कर्मणः सत्त्वस्य विषये तथा अस्ति इति कृत्वा द्वितीयस्थानं गुणस्य, न तु कर्मणः. स्पष्टं वा? अस्तु महोदय, सम्यक्. अग्रे गत्वा विजी भगिनी, विजी गोविन्दराजन् भगिनी अस्ति खलु, भगिनी अग्रे पठति वा? ते च विजी भगिनी म्यूट् मध्ये गतवती, किमर्थम्?
समीता, ते च रूपरस गन्ध स्पर्शेत्यादि सङ्ग्रह पङ्क्त्या निरूपितः ततः
अभवत् इति इदानीमेव अभवत् रूपरसगन्ध इति अस्तु अग्रे गच्छतु भगिनि
ततः कर्मक्रिया निर्दिष्टा उक्षेपणादिग्रन्थेन ततः कर्मक्रिया निर्दिष्टा उक्षेपणादिग्रन्थेन ग्रन्थेन निर्दिष्टा कर्मक्रिया
इत्युक्ते कर्म इत्युक्ते क्रिया
कर्म इत्युक्ते क्रिया तदेव ग्रन्थेन उक्षेप ग्रन्थेन निर्दिष्टं भवति साधु वा
अस्तु ग्रन्थः इत्यस्य विशेषः अर्थः अस्ति ग्रन्थः इत्युक्ते बुक् इति नास्ति अस्तु वाक्यानां समूहः इति चिन्तयतु
भाष्यं
भाष्यमपि न वाक्यानां समूहः तावदेव उत्क्षेपणादिग्रन्थः इति उक्तं खलु अग्रिमवाक्यं पठतु
उत्क्षेपणापक्षेपणा कुञ्चन प्रसारणगमनानि पञ्चकर्माणि ओ पञ्चकर्माणि विवरणं दत्तम् उत्क्षेपण अपक्षेपण कुञ्चन प्रसारण आकुञ्चन
पुनः
प्रसारणगमनानि
पुनः सन्धयः सन्ति उत्क्षेपण
उत्क्षेपण
अपक्षेपण
कुञ्चन आकुञ्चन समीराम् आकुञ्चन प्रसारणगमनानि पञ्चकर्माणि साधु वा
हा बहु समीचीनं भगिनि साधु उत्क्षेपण इत्युक्ते क्षिपति क्षेपणं जानाति
क्षेपणं क्षेपणं उत्क्षेपणं
अपक्षेपणम् समानमेव क्षेपणम् इति
क्षेपणम्
आकुञ्चनम् इति तु जानाति
आकर्षणम्
प्रसारणं
प्रसारणं स्प्रेडिङ्ग् प्रसारणं गमनानि कर्ममेव पञ्चकर्माणि कर्माणि उत्क्षेपणम् प्रक्षेपणम् आकुञ्चनम् प्रसारणम् गमनं पञ्चकर्माणि
पुनः अत्र द्वन्द्वसमासः अस्ति गमनानि इति
आगतम्
अस्तु एकं वक्तव्यमस्ति अत्र यत् केवलं पञ्चकर्माणि इति न ततः अधिकाः अधिकानि अपि कर्माणि
सन्ति
एते किं कुर्वन्ति लाघवार्थं केवलम् एकः वर्गः भगिनि किञ्चित् म्यूट् करोमि भवत्याः एको अस्तु केवलं वर्गीकरणार्थम् इमानि पञ्चकर्माणि स्वीकृतानि वर्गीकरणं कृत्वा पञ्चकर्माणि इति उक्तं कर्म इति एकः वर्गः आवश्यकः उत्क्षेपण अपक्षेपण आकुञ्चन प्रसारण इति उक्त्वा अन्यानि सर्वाणि कर्माणि गमनानि इत्यस्मिन् अन्तर्भूतानि उदाहरणत्वेन एव प्रतिनिधिरूपेण कर्मणां प्रतिनिधिरूपेण गमनानि इति उक्तवन्तः वस्तुतः अनन्तानि कर्माणि सन्ति अस्तु रामः उत्क्षिपति श्यामः उत्क्षिपति भीमः उत्क्षिपति इति कृत्वा अनन्तानि कर्माणि सन्ति परन्तु सर्वेषां वर्गीकरणं कृतम् अनेन वाक्येन अस्मिन् वर्गे कर्म इत्यस्मिन् वर्गे सर्वाणि कर्माणि आगच्छन्ति इति वदन्ति अस्तु इति कृत्वा कर्मणः निर्देशः अपि जातः कोऽपि प्रश्नः वा अत्र सम्यक् तर्हि अग्रे गच्छेम सव्यसाची महोदय पठति वा
भगिनि पूर्वोक्तानां गुणानां कर्मणां च विस्मृतं विवरणम् अग्रिमलक्षणप्रकरणे भविष्यति सम्प्रति नाम्ना सङ्कीर्तनम् एव भवति हा इदानीं लेखकः भवति पूर्वे यत् उक्तम् इत्युक्ते गुणविषये कर्मविषये
गुणस्य सत्त्वम् अस्ति इति तत्र कोऽपि विवादः नास्ति, परन्तु कर्मः तस्य सत्त्वमस्ति विवादः अस्ति. तच्च गुण एवं कर्मविषये विस्मृतं विवरणम् अग्रिमलक्षणप्रकरणे भविष्यति. इत्युक्ते प्रायशः भगिनी अहं चिन्तयामि तत् लेखकः वदति इदानीं तत् त्यजामः, अग्रे किं किं भविष्यति गुण एवं कर्म, तत् अग्रे सामान्यं विशेषः अन्ये पदार्थाः अपि सन्ति, तस्य चर्चां भविष्यति एवम् अग्रे आयाति एतत् सर्वं गुणकर्म विस्तारतया अग्रे तस्य चर्चा इति भवति.
सत्यं महोदय, वयं तु जानीमः खलु लक्षणप्रकरणे इतोपि विवरणं निरूपणं भवति समीचीनतया इति. अस्तु, अत्र किं जातं तर्हि?
अत्र हा सम्प्रति नाम्ना सङ्कीर्तनम् एव भवति. इत्युक्ते अत्र केवलं नामकरणम् इति गुण चतुर्विंशतिगुणाः इति के अत्र दत्तमस्ति, एवं पञ्चकर्माणि केवलं श्रेणी रीत्या अत्र केवलं नामकरणमिति गुणकर्मविषये दत्तमस्ति.
हा हा हा, समीचीनं महोदय. नाम्ना सङ्कीर्तनम् इत्युक्ते नाम्ना कथनम्. अस्तु, इमानि पञ्चकर्माणि, इमे चतुर्विंशतिगुणाः, इमानि नवद्रव्याणि इति केवलं नाम्ना सङ्कीर्तनं जातम्. अस्तु, बहु सम्यक्. अग्रिमवाक्यं महोदय.
तत्र सर्वे गुणादयः द्रव्ये वर्तन्ते इत्यस्य पूर्वोक्तस्य अयमर्थः विवक्षितः. इत्युक्ते तत्र वयं दृष्टवन्तः तृतीयपुटे इति सप्तपदार्थाः दत्तमस्ति, द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः एवम् अभावः. एवं ये सप्तपदार्थाः ये सन्ति तत्र षड् पदार्थाः इत्युक्ते गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः, ये सर्वे द्रव्ये तिष्ठन्ति, द्रव्यम् आश्रित्य तिष्ठन्ति इति वयं दृष्टवन्तः. उपरि अपि अस्मिन् सप्तमपुटे उपरि यत् चित्रमस्ति तदपि दत्तमस्ति, एवं वयं बहवः अभ्यासाः अपि कृतवन्तः अद्य कक्षायाः आरम्भे.
हा, समीचीनं महोदय. सर्वे गुणादयः यद्यपि तथा उक्तं, केवलं षड् इति न, द्रव्यं स्वयं द्रव्ये एव भवितुमर्हति इति तु. इदानीं भूतले घटः अस्ति इति वदामश्चेत् भूतलं द्रव्यं, घटः अपि द्रव्यं. हा, समीचीनम् इति अस्ति. किन्तु अस्मिन् वाक्ये तथैव, यथा भवान् उक्तवान्, गुणादयः इत्युक्ते षड् पदार्थाः द्रव्ये वर्तन्ते इति पूर्वोक्तस्य अयमर्थः विवक्षितः. अस्तु, सम्यगस्ति. तर्हि द्रव्यस्य अपि च गुणस्य कर्मणः च नाम्ना सङ्कीर्तनं जातमस्ति अस्मिन् विभागे. इतः किञ्चित् अग्रे कर्तुं शक्नुमः. तत्र शशिकिरणमहोदय अस्ति वा? अष्टमे पुटेन नवमे पुटे प्रथमवाक्यं पठतु.
अस्तु भगिनि. तथा च गुणादयः सर्वे द्रव्ये एव तिष्ठन्ति इति न तद्वाक्यार्थः, किन्तु द्रव्ये अवश्यं तिष्ठन्ति, गुणादौ यथायथं तिष्ठन्ति इति अर्थः. तस्य अग्रे पठामि वा?
न, किम् अवगतम् इति किञ्चित्.
अत्र प्रथमवाक्ये लिखितमस्ति, वयं पूर्वमेव यथा दृष्टं, द्रव्यस्य उपरि गुणः अस्ति, अतः गुणादयः इत्युक्ते सर्वे षट् पदार्थाः द्रव्यस्य उपरि तिष्ठन्ति इति तत्तु अवगतम्
इति वाक्यार्थः अवगतः, समीचीनः एव. गुणादयः सर्वे द्रव्ये एव तिष्ठन्ति इति तत् समीचीनमेव, किन्तु किम्?
किन्तु द्रव्ये अवश्यं तिष्ठन्ति, गुणादौ यथायथं तिष्ठन्ति इति अर्थः. यथायथम् इत्युक्ते किं भगिनि?
यथायथम् इत्युक्ते यथा सङ्गं, यथा औचित्यं तथा तिष्ठन्ति. द्रव्ये अवश्यं तिष्ठन्ति सप्तपदार्थाः, इति सत्यम्. अपि च गुणादयः इति वदन्ति चेत् प्रायः गुणः इत्यस्मात् आरभ्य षड् पदार्थाः अवश्यं तिष्ठन्ति द्रव्ये इति तु सत्यं. परन्तु परन्तु गुणः अपि पदार्थः, कर्म अपि पदार्थः, सामान्यमपि पदार्थः किल.
आम्, इत्युक्ते अत्र अहम् अवगतं गुणस्य अनन्तरं पञ्चपदार्थाः सन्ति, ते सर्वे गुणस्य उपरि तिष्ठन्ति इति वक्तुं न शक्यते इति सर्वदा
द्रव्ये. हा, समीचीनं महोदय, इत्येव इत्येव अर्थः. द्रव्ये तु अवश्यं तिष्ठन्ति,
द्रव्ये तिष्ठन्ति, गुणस्य उपरि तिष्ठन्ति वा न वा इति सर्वदा वक्तुं न शक्यते.
हा, सम्यक्, इत्येव वार्ता.
आं, तदेव अहं प्रथमं प्रश्नमपि पृष्टवान्, तदेव इदानीम् उत्तरं प्राप्तम्.
हा, समीचीनम्, इत्येव वार्ता अस्ति. अस्तु, पुनः अष्टमपुटं प्रति आगच्छतु. अष्टमपुटे एकं कोष्टकम् अस्ति खलु, तर्हि प्रथमकोष्ठं पठतु. तत्र किमस्ति द्रव्यम् इत्यस्मिन् किं किम् अस्ति?
अस्तु, द्रव्ये गुणः, द्रव्यं गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति सप्तपदार्थाः द्रव्ये भवन्ति.
हा, बहु बहु समीचीनम्, इत्येव अत्र लिखितं. सप्तपदार्थाः द्रव्ये भवन्ति इति अर्थः, इति अवश्यमस्ति. किन्तु गुणे किं किम् अस्ति?
गुणे तु सामान्यं, समवायः, अभावः इति त्रीणि पदार्थानि एव सन्ति.
तत्र किं लिखितमस्ति अग्रे?
अत्र लिखितमस्ति, तथा च गुणे द्रव्यं गुणः, कर्म, विशेषः च नास्ति इत्यर्थः. त्रीणि पदार्थानि गुणे भवितुम् अर्हन्ति, अन्यचत्वारि पदार्थाः गुणे न भवन्ति इति अर्थः.
हा, बहु समीचीनं, चत्वारः पदार्थः, पुल्लिङ्गपदम् अस्ति पदार्थः इति. हा, सम्यक् अस्ति महोदय, इत्येव अर्थः. यथा यथम् इति पठितं खलु, तस्य अर्थः अयमेव, यथा सङ्गं, यथा औचित्यम् अपरेषु पदार्थेषु. गुणे अत्र तु पश्यामः यत् केवलं सामान्यमस्ति, समवायः अस्ति, अभावः अस्ति, परन्तु गुणे गुणः नास्ति, रूपे रूपः अस्ति वा? नास्ति. रूपे पृथिवी अस्ति वा? नास्ति. पृथिव्यां रूपं स्यात्, किन्तु रूपे पृथिवी इति द्रव्यं न स्यात् किल. रूपे द्रव्यं नास्ति, रूपे गुणः नास्ति, अपि च रूपे कर्म नास्ति. उत्क्षेपणम्, अपक्षेपणम् इत्यादिकं गुणे कुत्र भवति? नास्ति. अपि च विशेषः अपि नास्ति. विशेषः किम् इति अग्रे ज्ञास्यामः, परन्तु गुणः इति पदार्थः तस्मिन् त्रयः पदार्थाः एव वर्तन्ते, न तु सप्तपदार्थाः. द्रव्यस्थले तथा नास्ति, द्रव्यं सर्वेषाम् अधिकरणं, गुणः तथा नास्ति इति आगतम्.
आम्, अत्र एकः प्रश्नः प्रथमस्तरे दत्तमस्ति, द्रव्ये द्रव्यमपि अस्ति इति, तस्य सर्क्युलर् रेफरेन्स् किमपि न भवति वा अत्र? किमर्थम् अत्र दत्तमस्ति द्रव्ये द्रव्यमस्ति इति?
हा, यथा मया उदाहरणं दत्तं, भूतलम् अस्ति, भूतले घटः अस्ति, घटः तु जानाति पाट् इति खलु.
आम्,
भूतलमपि द्रव्यं, घटः अपि द्रव्यम्. तदा वक्तुं शक्नुमः भूतले घटः इति चेत् द्रव्ये द्रव्यम् अस्ति इति.
अस्तु अस्तु, इदानीम् अवगतम्, इत्युक्ते भूतले अपि द्रव्यमस्ति, अनन्तरं घटे अपि द्रव्यमस्ति, अतः द्रव्ये द्रव्यमस्ति इति.
सत्यं सत्यम्, इत्येव आयातम् अत्र.
अस्तु, इदानीम् अवगतम्.
अस्तु महोदय, सम्यक् अस्ति. अस्तु, सुमित्रा भगिनी, अग्रिम उदाहरणद्वयं पश्यति वा, कर्म अपि सामान्य किं किम् अस्ति इति.
कोष्टके खलु?
सत्यम्.
सामान्यं, समवायः, अभावः, तथा च गुणे द्रव्यं, गुणः, कर्म, विशेषः.
कुत्र पश्यति? गुणः तु अभवत्, कर्म इति.
गुणः, कर्म,
भगिनि, गुणस्य विषये अधुना वयं चर्चितवन्तः, कर्म इत्यस्य विषये पठतु.
सामान्यं, समवायः, अभावः, एवं कर्मणि अपि द्रव्यं, गुणः, कर्म, विशेषः च नास्ति इत्यर्थः.
तर्हि अत्र कर्मणि किं किम् अस्ति?
आ,
कथं वक्तुं शक्नोमि इति न अवगच्छति सम्यक्तया.
हा, कर्मणि भवती यत् पठति तत्र कर्म इति अधिकरणं, कर्म इति अधिकरणं, कर्मणि किं किम् अस्ति?
द्रव्यं, गुणः, कर्म.
तद् नास्ति खलु भगिनि? तर्हि पश्यतु, त्रयः पदार्थाः के
ते नास्ति तत्र.
सामान्यं समवायः अभावः.
हा, तावदेव अस्ति कर्मणि.
कर्म कर्मे सामान्यं समवायः अभावः अस्ति, न तु द्रव्यं, गुणः, कर्म, विशेषः.
हा, इति बुद्धं?
बुद्धं
बुद्धम् इत्युक्ते कर्म इति उत्क्षेपणम्, अपक्षेपणं, गमनं,
पञ्चकर्म.
पुनः द्रव्यं नास्ति इत्युक्ते द्रव्यं बालकः, बालके कर्म अस्ति. अस्तु, हा, अहं चर्चितवती अद्य आरम्भे अपि, बालकः अपि द्रव्यं. कुतश्चित् को आगच्छति? अस्तु, बालकः अपि द्रव्यम् अस्ति, बालके कर्म स्यात्. अत्र नैयायिकानां द्रव्यम् इत्यस्य वदनेन नैयायिकानां बहु बृहद्रीत्या सर्वम् अङ्गीक्रियते. चेतनः पदार्थः, अचेतनः पदार्थः अपि द्रव्यं, मनुष्यः द्रव्यं तथा. अस्तु, तर्हि बालके अपि सामान्यमस्ति, समवायः अस्ति, अभावः अस्ति. किन्तु बालके कर्म अस्ति, परन्तु कर्मणि सामान्यं, समवायः, अभावः एव, न तु द्रव्यं, न तु गुणः, न वा कर्म, विशेष इति. अस्तु भगिनी, अग्रे सुमित्रा
भगिनी, अत्र प्रश्नः अस्ति, अत्र द्रव्यम् इत्यस्मिन् ईश्वरः न आगच्छति खलु? ईश्वरः कुत्र तिष्ठति?
अवश्यम् आगच्छति. द्रव्याणि कानि कानि?
आत्मा, आत्मनि ईश्वरः अपि अस्ति इति वा?
हा, जीवात्मा अपि च परमात्मा इति आगच्छति.
ओ, तर्हि ईश्वरः अपि द्रव्यम्. अस्तु,
तदर्थमेव उक्तवती, नैयायिकानां द्रव्ये अङ्गीकारः बहु बृहद्रीत्या क्रियते. चेतनः, अचेतनः, आत्मा, मनः, सर्वं द्रव्यं, परिगणना अस्ति तेषाम्.
ओ, अस्तु अस्तु, धन्यवादः भगिनि.
तर्हि कर्मस्य, कर्मणः विषये जातम्. अधुना अग्रे सुमित्रा भगिनी, सामान्ये किं किं वर्तते?
सामान्ये समवायः च अभावः वर्तते, न तु द्रव्यं, गुणः, कर्म न अस्ति तत्र. सामान्ये,
बहु समीचीनं, सामान्ये द्रव्यं, गुण, कर्म, पुनः सामान्यं विशेषः अपि नास्ति.
आम्
किल, सामान्ये केवलं पदार्थद्वयं, समवायः,
अभावः एव.
समीचीनम् इति वार्ता. अग्रे जगन्नाथमहोदय, अग्रिमत्रयं करोति वा?
विशेषे समवायः, अभावः स्तः. समवाये, अभावे च केवल अभावः भवति.
हा, तत्र किं लिखितमस्ति विशेषे?
विशेषे पूर्वोक्तः पञ्चपदार्थाः न सन्त्यर्थः. समवाये षट् पदार्थाः न सन्त्यर्थः. अभावे षट् पदार्थाः न सन्त्यर्थः. अत्र यदा अत्र अन्तिमत्रिषु पदार्थेषु यत् यदपि न लिखितमस्ति, यथा सामान्यं, कर्म, गुणः, द्रव्यम् इति, ते सर्वे तत्र न तिष्ठन्ति, ते तस्य ते विशेषः वा समवाय वायोः वा अभावस्य वा समवायस्य वा अभावस्य वा आधेयं न भवति इति.
हा इत्येव हा समीचीनम् इति प्रदर्शितं. विशेषः अधिकरणं चेत् तत्र आदेयः समवायः अथवा अभावः. समवायः अधिकरणं चेत् तत्र केवलम् अभावः इति आधेयः. अभावे अभावः तिष्ठति. कथमिति अग्रे ज्ञास्यामः. तर्हि बहु चिन्तां मा कुर्वन्तु. केवलं जानन्तु यत् विशेषः अधिकरणं चेत् तत्र आधेयरूपेण केवलं समवायः अपि च अभावः स्थातुम् अर्हतः. समवाये अभावः एव, अभावे अभावः एव. परन्तु द्रव्ये तथा नास्ति. उपरितनभागे दृष्ट्वा तत्र अवलोकनं कुर्वन्ति चेत् तत्र द्रव्ये सर्वम् अस्ति खलु. द्रव्ये सप्तपदार्थाः सन्ति इति कृत्वा द्रव्यं सर्वेषाम् अधिकरणम् इति आयातम्. समीचीनं वा?
समीचीनं, धन्यवादः.
अस्तु
भगिनी, एकः प्रश्नः अस्ति. यदि अत्र ईश्वरः द्रव्यम् इति चेत् तत्र ईश्वरे अभावः अपि अस्ति वा?
सत्यं भगिनि. कीदृशमिति अग्रे पश्यामः. सर्वम् अस्ति. कीदृशम् अभावः इत्यस्य प्रसङ्गे इतोपि चर्चां कुर्मः. अस्तु.
ओ अस्तु अस्तु
अस्तु अग्रे एवं कुर्मः. एकं परिच्छेदं किञ्चित् पठित्वा समापयामः. तत्र प्रायः अजितमहोदय पठति वा द्रव्ये?
आं भगिनि. द्रव्ये वर्तन्ते इत्यत्र पूर्वदर्शितचित्रैः अर्थवर्णनेन च इदमायाति. सामान्यं द्रव्ये गुणे कर्मणि त्रिषु वर्तते. तत्र सर्वेषु द्रव्येषु विद्यमानं गुणरूपं पदार्थमादाय द्रव्यसमुदायः यथा निरूपितः तथा गुणत्वसामान्यमादाय गुणसमुदायः, कर्मत्वसामान्यमादाय कर्मसमुदायः निरूपयितुं शक्यते इति. अस्तु. यथा वयं दृष्टवन्तः पूर्वदर्शितचित्रैः, सामान्यं द्रव्ये गुणे कर्मणि त्रिषु वर्तते. अत्र चित्रत्रयं पश्यन्ति चेत् तत्र सामान्यं कुत्र कुत्र वर्तते इत्युक्ते, सामान्यं द्रव्ये वर्तते, गुणे वर्तते, कर्मणि अपि वर्तते. तत्र सर्वेषु द्रव्येषु विद्यमानां गुणरूपं पदार्थमादाय द्रव्यसमुदायः इति निरूपयितुं शक्यते इति खलु भगिनि?
हा. आदाय इत्युक्ते किं महोदय? न्यायशास्त्रे वारं वारं शृणुमः आदाय इत्युक्ते स्वीकृत्य.
स्वीकृत्य आम्.
सर्वेषु द्रव्येषु विद्यमानं गुणपदार्थम् आदाय, गुणरूपं पदार्थम्. अत्र भ्रमः मास्तु. गुणरूपम् इति वदामश्चेत् रूपम् इति अन्यतमः गुणः खलु. तद् न, गुणः इति रूपम् इत्युक्ते इति चिन्तयतु. तत्र गुणरूपपदार्थः इत्युक्ते गुण इति पदार्थः. तं स्वीकृत्य द्रव्यं निर्मितम्. द्रव्यं किं? द्रव्ये किमस्ति?
द्रव्ये गुणमस्ति.
गुणः अस्ति. तर्हि यत्र यत्र गुणः अस्ति सः पदार्थः, तद् सः पदार्थः द्रव्यम् इति द्रव्यसमुदायः निरूपितः किल अस्माभिः आरम्भे एव, प्रथमवर्गे एव अस्माभिः चर्चितं. द्रव्यं द्रव्यं कथं निर्मीयते इत्युक्ते गुणमादाय, इत्युक्ते गुणं स्वीकृत्य, गुणम् अङ्गीकृत्य द्रव्यम् इति समुदायः निरूपितः. तथैव
तथैव गुणत्वसामान्यमादाय गुणसमुदायः. तत्र गुणः सामान्यम् इति गुणे वर्तते, तद् आदाय गुणसमुदायः इति निरूपयितुं शक्यते.
इत्युक्ते यथा बालके बालकत्वं, पुरुषे पुरुषत्वं, अथवा सुन्दरे सुन्दरत्वं तदा तत्त्व तद्वदेव गुणे गुणत्वम् इति जानीमः किल अपि च गुणत्वम् इति यदस्ति तदेव सामान्यं सामान्यस्य विषये अग्रिमवर्गे पठामः विस्तृतरूपेण केवलं परिचयत्वेन अत्र उक्तं गुणत्वसामान्यमादाय इत्युक्ते गुणत्वम् इति सामान्यं स्वीकृत्य गुणसमुदायः निर्मितः यथा गुणः इति पदार्थं स्वीकृत्य द्रव्यसमुदायः निर्मितः तद्वद् गुणत्वम् इति पदार्थम् आदाय गुणसमुदायः निर्मितः
तथैव तथैव कर्मत्वम् इति स्वीकृत्य कर्मसमुदायः निरूपयितुं शक्यते
हा समीचीनम् इत्युक्ते यत्र यत्र गुणत्वमस्ति तत् सर्वं गुणः इति कृत्वा गुणसमुदायः तद्गुणत्वम् इति एव सामान्यम् इति पदार्थः अग्रिमवर्गे इतोपि स्पष्टता भवति तद्वदेव यत्र यत्र कर्मत्वं भवति तद् कर्म इति कृत्वा एकः समुदायः कर्मनाम्ना समुदायः निर्मितः इति वार्ता अस्ति अत्र
तत्र द्रव्ये प्रायः द्रव्यत्वम् इति वक्तुं शक्यते खलु
सत्यं हा अवश्यमस्ति द्रव्ये द्रव्यत्वम् अवश्यम् अस्ति परन्तु द्रव्यसमुदाय निरूपणार्थं गुणः इति पदार्थः स्वीकृत्य निरूपणं जातं गुणमादाय गुणरूपपदार्थमादाय किल वदतु भगिनि विजय भगिनि
क्षम्यतां तत्र विशेष समवायत्वम् अभवायत्वम् आदाय विशेषत्वं निरूपितं
पश्यतु तत्र विशेषः इत्यस्मिन् सामान्यं नास्ति किल
समवायः अभावः स्तः किल
सत्यं किन्तु अस्माकं चर्चा अधुना सामान्यस्य विषये गुणत्वसामान्यं स्वीकृत्य महोदय अधुना पठितवान् सामान्यं कुत्र कुत्र वर्तते
सामान्यं समवायः
तत्र नास्ति सामान्यं त्रिषु
सामान्यं त्रिषु त्रिषु चित्रेषु इत्युक्ते द्रव्ये गुणे कर्मणि एव वर्तते परन्तु यथा चित्रं पश्यन्ति चेत् समवायः अभावः अन्यत्र अन्यस्मिन् पदार्थे अपि वर्तते खलु
हा सत्यं भगिनी तर्हि विजया भगिनी सामान्यम् इति केवलं त्रिषु वर्तते तदर्थं सामान्यम् आदाय गुणः इति निर्मितः कर्म इति पदार्थः निर्मितः
सामान्यमादाय गुणः निर्मितः कर्म निर्मितः तदेव द्रव्यमपि निर्मितः खलु
न द्रव्यं तु गुणस्य आधारेण गुणमादाय द्रव्यं
गुणमादाय द्रव्यम्
इति समुदायः निर्मितः सामान्यं किमिति अग्रे गत्वा इतोपि स्पष्टतया ज्ञास्यामः केवलं पूर्वभूमिकारूपेण अधुना पाठितवती तावदेव अस्तु
अस्तु अस्तु अस्तु धन्यवादः
अस्तु सर्वेषां कृते एकम् अस्मिन् सप्ताहे गृहपाठत्वेन कृपया आरम्भतः पुस्तकम् एकवारं पठन्तु अवगच्छन्ति यावत् अवगच्छन्ति पर्याप्तं किन्तु केवलं पठन्ति चेत् आरम्भतः जगति अनेकानि वस्तूनि सन्ति इति अनुस्यूततया पठितुं शक्नुवन्ति चेत् तेन महान् लाभः अस्तु अस्मिन् पुस्तके शैली काचित् भिन्ना अस्ति यथा वयं सामान्यतया सम्भाषणवर्गेषु अथवा अपरेषु संस्कृतवर्गेषु केवलं सम्भाषणमाध्यमेन संस्कृतं जानीमः एतावत्पर्यन्तं किन्तु अत्र शैली काचित् भिन्ना अस्ति खलु भाषाशैली भाषाशैल्याः अभ्यासः अथवा फेमिलियारिटि भवति वारं वारं पठन्ति चेत् तर्हि कृपया गृहपाठरूपेण आरम्भतः केवलम् एकवारं वा द्विवारं कण्टिन्यूस्लि पठन्तु अनेन महान् लाभः भवति वर्गे अपि सुलभतया पठितुं शक्नुवन्ति यथा अस्माभिः दृष्टम् अत्र पश्यन्तु तत्र द्रव्याणि पृथ्वी अप् तेजो वायुवाकाश काल दिगात्मा मनांसि नवायुव इति अस्ति तत्र बहवः सन्धयः सन्ति किल पठित्वा पठित्वा पठन अभ्यासः भवति चेत् वर्गे सुलभतया पठितुं शक्नुवन्ति कृपया अस्मिन् सप्ताहे वारं वारं पठन्तु आरम्भतः भगिनी
भगिनी भगिनी एकः सन्देहं दिस् इस् वित् रिगार्ड् टु द क्लास् देर् इस् ओन्लि वन् क्लास् नौ एव्रि वीक्
एकवर्गे Saturday we decided one class Mahodaya because the number of participants, we thought if it doesn't go beyond 15 we may as well have one class, but we'll think about it. Again.
No, I have received a mail yesterday from Bhagini and today I received from Usha
I forgot the name. Satyam, the email was from me, Sri Raksha, and today again Jayanti Bhagini sent, just notifying.
Exactly.
Sri Raksha.
So only on Saturday night.
Satyam. Iti asmakam chintam.
Thank you. Dhanyavadha.
Asa. Shivram Kulkarni Mahodaya, what about Tuesday class? Iti prayaha Tuesday kaksha dvayam Mahodaya. Tatra janaha adhikaha santi iti bhati tadartam. Vibhujanam bhavedeva. Asa. Samyak tarhi.
Dhanyavadha bhagini.
Asa. Anya kopi prashna hava? अस्तु न सन्ति चेत् विरमामः अपि च मनसि भवेत् कृपया गृहपाठरूपेण आरम्भतः पठन्तु जस्ट् वन् आर् टु रीडिङ्ग्स् आफ़् द टेक्स्ट् विल् हेल्प् यु अलोट् इति अस्तु तर्हि
भगिनि एक्स्क्यूस् मी
एकनिमिषं महोदय स्थगयामि रेकार्ड् धन्यवादः
सन्देश ओके ओके